रेकार्डिङ्ग् अपि करोमि. द्रष्टुं शक्नुवन्ति वा स्क्रीन्?
आं भगिनि.
धन्यवादः. आरम्भं कुर्मः. कः अथवा का प्रार्थनां कर्तुम् इच्छति? अस्तु भगिनि, वदतु. धन्यवादः.
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये. सरस्वती नमस्तुभ्यं वरदे कामरूपिणि. विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः. गुरु साक्षात् परं ब्रह्म तस्मै श्रीगुरुवे नमः. ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः.
धन्यवादः भगिनी. अद्यतनसुभाषितम् एकवारं दृष्ट्वा वयं प्रश्नं प्रति गच्छामः. सुभाषितम् एवम् अस्ति. नाभिषेको न संस्कारः सिंहस्य क्रियते वने. नाभिषेको न संस्कारः सिंहस्य क्रियते वने. विक्रमाजितसत्त्वस्य स्वयमेव मृगेन्द्रता. विक्रमादित्यसत्त्वस्य स्वयमेव मृगेन्द्रता. इत्युक्ते न अभिषेकः न संस्कारः सिंहस्य क्रियते वने. वने सिंहस्य अभिषेकः संस्कारः वा केनापि न क्रियते. सो अत्र कर्मणि प्रयोगे अस्ति. केनापि न क्रियते इत्युक्ते कोऽपि न करोति. सिंहम् उपविश्य अभिषेकं वा अन्यसंस्कारं वा न करोति, कोऽपि न करोति. विक्रम अर्जितसत्त्वस्य स्वयमेव मृगेन्द्रता. विक्रम इत्युक्ते किम्? वेलरस्. स्वस्य वेलर् स्वस्य अर्जनं स्वस्य विक्रमम् उपयुज्य स्वयमेव सम्पादितवान्. वेलर् स्वयमेव सम्पादितवान् तादृशशक्तिः. तादृशशक्तिः स्वयमेव सम्पादितवान्. सम्पाद्य तस्य गुणं सत्त्वगुणं सत्त्वगुणम् इत्युक्ते हिस् सेल्फ़्. सिंहः इति ऐडेण्टिटि अस्ति चेत् तस्य ऐडेण्टिटि किं? बहु विक्रमकारः इति शक्ति शक्तिमान् सिंहः इति तस्य नाम अस्ति. तस्य ऐडेण्टिटि एवम् अस्ति. स्वयमेव तादृश बलं स्वीकृत्य बलं अर्जितवान्. बलम् अर्जनं कृत्वा स्वयमेव मृगेन्द्रता. स्वयमेव मृगाणाम् इन्द्रा. मृगाणाम् इन्द्रा इत्युक्ते मृगाणाम् इन्द्रः इत्युक्ते नेता. इत्युक्ते वने सः एव नेता. तस्य उपरि अन्य कोऽपि मृगः नास्ति इति. मृगेन्द्रतां सः एव स्वयमेव स्वस्य विक्रमम् उपयुज्य एव सः एव सम्पादितवान् इति अर्थः अस्ति. स्वस्य बलेन शौर्येण च स्वामित्वम् इत्युक्ते बास्. स्वामित्वं सम्पाद्य सिंहः स्वयमेव मृगाणां राजा इति पदवीं प्राप्नोति. सो अतः वयमपि तथा एव कुर्मः इति. स्वयमेव अस्माकं प्रयत्नेन एव वयं सम्पाद्यं कुर्मः, सम्पाद्यम् अन्य कोऽपि न दद्मः चेत् नास्ति चिन्ता, स्वयमेव एतादृशं कुर्मः. अन्यरीत्या वदामः चेत् सुभाषितं सिंहेन उदाहरणेन स्वयार्जितस्य महत्त्वं वदति. इत्युक्ते स्वयमेव अर्जनं कुर्मः चेत् तस्य महत्त्वं कीदृशमहत्त्वं, बहु उत्तममहत्त्वं. कोऽपि अरण्ये सिंहस्य अभिषेकं न करोति, कमपि संस्कारं न ददाति, तथापि सिंहः वनराजः इति एव प्रसिद्धः अस्ति. कथं? सिंहं कोऽपि पुरस्कृत्य स्वीकृत्य वनराजपदवी सिंहाय न ददाति, सः स्वसामर्थ्येन स्वप्रयत्नेन एव वनस्य आधिपत्यम् इत्युक्ते राज्यत्वं प्राप्नोति. स्वस्य शौर्येण सिंहः मृगेन्द्रः भवति, मृगाणाम् इन्द्रः भवति. एवमेव सामर्थ्यवान् पुरुषः स्वस्य प्रयत्नेन स्वस्य सामर्थ्येन अत्युत्तमं पदम् इत्युक्ते पदवीं प्राप्तुं शक्नोति इति सुभाषितस्य अर्थः एवम् अस्ति. नाभिषेको न संस्कारः सिंहस्य क्रियते वने, विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता. एवमेव वयमपि तादृशं स्वयप्रयत्नेन एव सर्वं प्राप्नुमः इति तात्पर्यम् अस्ति. अवगच्छन्ति वा?
आं भगिनि.
अस्तु, प्रश्नः नास्ति चेत् वयं प्रश्नं प्रति गच्छामः. सो अत्र सत्त्व इति अर्थः अस्ति ऐडेण्टिटि, दट् इस् हिम् इति, बट् इस् नाट् सत्त्वगुण नास्ति. न अस्तु अस्तु. सो अत्र प्रथमविभक्तिरूपाणि पश्यामः वा एकवारम्?
आं भगिनि.
अस्तु, मिलित्वा कुर्मः वा एकमेकं कुर्मः वा?
नमस्ते भगिनि, एकमेकं कुर्मः.
एकमेकं वा? अस्तु अस्तु, तर्हि प्रथमं श्रीनिवासमहोदय. भवत् श्रोतृ, भवत् श्रोतृ अत्र ओके. सो ऐ गेव् दि आन्सर् हियर्. अस्तु, तादृशं मास्तु. ओके ओके, सो वि गो एकमेकमेव कुर्मः. एकनिमिषम्.
Question.
Oh, that's what you meant. Okay. Astu bhagini. Okay, I'm looking for the link. Okay, just give me 1 minute. Okay, got it. Okay, my computer is not working. Astu, atra shashti vibhakti asti. Prathamam we go for prathama vibhakti. Okay. So atra prashnaha asti bhavat shrotru iti moola roopam. उचित प्रथमाविभक्ति रूपाणि चिन्वन्तु इति. सो अत्र भवत् इति मूलरूपं, प्रथमाविभक्तिरूपम् एकवचनं किं भवति? मूलरूपं भवत् अस्ति, प्रथमाविभक्ति एकवचनरूपं भवान्. श्रोतृ इति मूलरूपं, परन्तु श्रोता इति प्रथमाविभक्ति एकवचनरूपं. श्रोता श्रोता, भवान् भवन्तौ भवन्तः, श्रोता श्रोतारौ श्रोतारः 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 इति इति भवति. सो अत्र श्रोता श्रोतारौ श्रोतृः इस् नाट् करेक्ट्, श्रोतृः इस् नाट् करेक्ट्. अण्ड् आल्सो भवत् भवतः भवान्तः न, भवान् भवन्तौ भवन्तः सम्यक्, परन्तु श्रोतृः इति न भवति. श्रोता श्रोता. अस्तु अग्रिमं, किम् अतिथि. अत्र द प्राब्लम् किम् इति अस्ति चेत् वि नीड् टु नो द रूपाणि. श्रोतृ इस् अ ऋकारान्तपदम्, भवत् इस् अ तकारान्तपदम्. सो वाट् विल् बि द रूपाणि, दट् इस् द चेलेञ्ज् हियर् अत्र. सो अत्र किं शब्दः अस्ति, किं शब्दः पुल्लिङ्ग भवति, स्त्रीलिङ्ग भवति, नपुंसकलिङ्गे अपि अपि भवति. सो अत्र चेलेञ्ज् किम्, अतिथि इति पुल्लिङ्गं वा स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा इति. अतिथि इति कीदृशपदम्? पुल्लिङ्गपदम्, इकारान्त पुल्लिङ्गपदम्. सो देयरफोर द किम् शब्द आल्सो मस्ट् बि पुल्लिङ्गपदम्. कः कः
कः
कः अतिथिः, कौ अतिथि, के अतिथयः, अतिथिः अतिथि अतिथयः. सो दट् इस् द रूपम्. So it cannot be kim because atithi is not a napumsakalinga. If it is napumsakalinga padam, this is correct. Atithi, atithini, atithini, but it is not. Kim ke kaani. Ka ke kaha api samyak nasti. So atra kaha, kaha eva samyak. Samyak. Astu, agree. Bhavat, atra api, bhavat shabdaha api, पुल्लिङ्ग भवति, स्त्रीलिङ्ग भवति, नपुंसकलिङ्ग अपि भवति. सो अत्र शिक्षिका इति कीदृशपदम्?
स्त्रीलिङ्ग आकारान्तपदम्,
आकारान्त स्त्रीलिङ्गपदम्. सो अतः भवती शिक्षिका इस् करेक्ट्, बट् वि हाव् टु हियर् भवती शिक्षिका, भव अण्ड् देन् शिक्षिका शिक्षिके शिक्षिकाः सम्यक् अस्ति, परन्तु भवती शब्दस्य त्रीणि रूपाणि कानि? भवती, भवत्यौ, भवत्यः. सो दिस् इस् द करेक्ट् करेक्ट् भवती, भवत्यौ, भवत्यः. सो अत्र साधवः, साधवः कीदृशरूपम्?
उकारान्त
पुल्लिङ्गरूपं, बहुवचनरूपं. सो अतः उकारान्तपदमस्ति चेत् ताः सम्यक् नास्ति. हलो,
अशुद्धमस्ति,
अशुद्धम् अस्ति, अशुद्धम् अस्ति, अशुद्धम् अस्ति. ते साधवः सम्यक् वा? सम्यक् एव, साधु साधुः, साधु साधवः सम्यक् एव, साधुः साधु साधवः सम्यक् एव. ते साधु अशुद्धम्, अशुद्धम् ते इति सः तौ ते दट् इस् पुल्लिङ्गशब्दः अस्ति चेत् बहुवचनं परन्तु साधु इति द्विवचनम् अस्ति अतः सम्यक् नास्ति अशुद्धं तौ साधु सम्यक् वा शुद्ध शुद्धम् सः तौ अपि साधुः साधु सो दे मेच् सम्यक् अस्तु सः साधुः
सम्यक्
शुद्धं
शुद्धम् अस्तु सम्यक् अस्तु सो अत्र अस्ति अस्ति इति कीदृशपदम् नपुंसकलिङ्गपदम् अतः रूपाणि अस्ति अस्तिनी अस्तीनि एवम् एवं भवति सो नपुंसकलिङ्ग अतः तत्ते तानि सो अत्र तानि बहुवचनम् अस्तीनि अपि बहुवचनं सम्यक् वा शुद्धं भवति एतत् ओके इट्स् गोयिङ्ग् दिस् वे अस्तु नास्ति चिन्ता तानि अस्ति अस्तिनि
अशुद्धम्
अशुद्धम् रूपम् इस् क्लोस् बट् नाट् करेक्ट् नाट् करेक्ट् ते अस्तीनि
अशुद्धम्
अशुद्धम् ते इति द्विवचनं परन्तु अस्तीनि बहुवचनम् अस्ति तत् अशुद्धं ते अस्तिनि शुद्धम् अस्ति अस्तिनि अस्तीनि अस्तिनि इति द्विवचनं शुद्धं तत्ते तानि द्विवचनं शुद्धं ते अस्तिनि
नमस्ते भगिनि
नमस्ते शुद्धमेव तत् अस्तिम्
अशुद्धम्
अशुद्धम् अस्तिं न भवति मकारः न भवति नपुंसकलिङ्ग इकार उकार शब्दे मकारः न भवति अकारस्य शब्दे एव भवति पुस्तक पुस्तक तत् पुस्तकम् इति भवति परन्तु अत्र न भवति
एकः प्रश्नः भगिनि ते द थर्ड् वन् इस् इट् करेक्ट् आर् नाट्
नाट् करेक्ट् बिकास् द रूपम् इस् लैक् अस्तीनि रैट् सो वन् इन् द मिडल् हेस् टु बि शार्ट् द एण्डिङ्ग् हेस् टु बि लाङ्ग् सो दिस् इस्
फोर्त् वन् इस् करेक्ट्
Fourth one is correct.
Dhanyavad.
Astu. So, let me go to the link, Bhagini. I think that is better. Ek animation. Let me... Okay, here is better. Okay, so the tani astini is shuddham. Tani astini is ashuddham.
Bhagini, the problem is this font is too small to read.
Yeah, I'll make it bigger, yeah.
Samyak. सम्यक् भगिनि
अस्तु ते अस्तीनि नौ ऐ केनाट् सी शुद्धम् ओके ते अस्तीनि इस् अशुद्धं ते अस्तिनि इस् शुद्धं तत् अस्तिम् इस् अशुद्धं तत् अस्ति शुद्धं शुद्धं तत्र अस्ति अस्तिनि अस्तीनि ते तानि तत् अस्ति ते अस्तिनि तानि अस्तीनि अस्तु अग्रे शुद्धं वा अशुद्धं वा सो अत्र वधू अस्ति वधूः इति कीदृशपदं वधूः
ऊकारान्त स्त्रीलिङ्गशब्द
ऊकारान्त स्त्रीलिङ्गशब्द वधूः सो अत्र ऊः भवति त्रीणि रूपाणि कानि वधूः
वधूः
सो अत्र ऊकारान्त अस्ति चेत् य न भवति व भवति व नदी नद्यौ नद्यः ईकारान्त दीर्घ ईकारान्त अस्ति चेत् नदी नद्यौ नद्यः इति भवति अत्र वधूः अस्ति चेत् वधूः वद्वौ वद्वः वधूः वद्वौ वद्वः त्वम् अस्ति चेत् त्रीणि रूपाणि त्वं त्वं युवां यूयम् इति भवति एकनिमेषम् सप्तमी रूपाणि षष्टि षष्टि प्रथम अस्तु प्रथमाविभक्तिरूपाणि एवम् अस्ति वधूः वद्वौ वद्वः ई अस्ति चेत् यौ यः ऊ अस्ति चेत् वौ वः त्वम् अस्ति चेत् त्वं युवां यूयम् एवम् अस्ति सो अत्र त्वं वधूः शुद्धं वा
शुद्धमस्ति
शुद्धम् किमर्थम् इत्युक्ते विसर्गः भवति नदी अस्ति चेत् विसर्गः न भवति परन्तु ऊकारान्ते विसर्गः भवति त्वं वधु अशुद्धं युवां वद्वौ
शुद्धमस्ति
शुद्धं युवां वद्वाः यूयं वद्वाः
अशुद्धम्
अस्तु सो अत्र वधूः वद्वौ वद्वः एव वद्वाः न वद्वाः अशुद्धं वद्वः शुद्धं युवां वद्वे अशुद्धम् सो अत्र वद्वौ वद्वः नद्यौ नद्यः गौर्यौ गौर्यः वद्वौ वद्वः ई अस्ति चेत् यकारः ऊ अस्ति चेत् वकारः तादृशमेव भवति अस्तु अग्रे श्रुतिः ओके सो अत्र वि नीड् टु नो पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्ग अपि च एकवचनं द्विवचनं बहुवचनं श्रुतिः पुल्लिङ्गं वा स्त्रीलिङ्गं वा श्रुतिः
स्त्रीलिङ्गं
स्त्रीलिङ्गं
मतिवत् भवति
किं किं भगिनि
मतिवत् भवति
मतिवत् मतिवत् अतः एषा एषा श्रुतिः यतिः वयं वदामः खलु यतीन्द्र इति लैक् यतिराजा
इट्स् अ पुल्लिङ्ग अस्ति
पुल्लिङ्गशब्दः किमर्थम् अस्ति ऐ मीन् वि शुड् नो न जानीमः चेत् अत्र पश्यामः कोशः अस्ति यति सन्देहः अस्ति चेत् निश्चयेन पश्यन्तु यति सो अत्र यति सेज् इति अस्ति अतः वयं जानीमः यतिः इति पुल्लिङ्गपदम् एकवचनम् एषः अक्षि नपुंसकलिङ्गं सन्देहः अस्ति चेत् पश्यतु अक्षि अक्षि इत्युक्ते नयनम् नेत्रम् इति अक्षि सो अतः एतत् अक्षि इति भवति एतत् अक्षि गिरौ
गिरिः
गिरिः हिमगिरि हिमगिरि
पुल्लिङ्ग वा स्त्रीलिङ्ग अस्ति गिरिः
पुल्लिङ्गपदं पुल्लिङ्ग हरि एतौ एतौ सम्यक् एतौ गिरिः
एतौ गिरौ
न अशुद्धं दिस् इस् अशुद्धं खलु ऐ गेव् द राङ्ग् आन्सर् गिरिः गिरी गिरयः एव सो दिस् इस् अ राङ्ग् आन्सर् I think I would have given it as etau but the rupam is wrong.
Girau itself
is wrong.
Girau is actually saptami, right?
Saptami. So girau itself is wrong. So it should be Giri. Yeah, it should be Giri. Okay, so let's assume this is Giri, then it is Etau Giri. Girihi Giri Girayaha. So that is not. Okay. Buddhi.
Buddhi Strilinga Asti. Nadivad Bhavati.
Ikaranta Pullinga Buddhi.
Strilinga. द्विवचनं बुद्धिः बुद्धी बुद्धयः लैक् गिरिः सेम् रूपं बट् वन् इस् पुल्लिङ्ग वन् इस् स्त्रीलिङ्ग गिरिः गिरी गिरयः बुद्धिः बुद्धी बुद्धयः बट् हियर् इट् विल् बि एते बुद्धी वारिणी सो वारि वारिणि वारीणि
एतानि
भवति एते वारिणि सो अत्र पश्यतु वारि वारिणि वारीणि सो if it is dirgha in the end like mati hari is dirgha in the end then it is dvivachanam pustakani hrasva in the end then it is bahuvachanam okay so this is varini like mati buddhi giri
so
ete so strilinga also dvivachanam ete napumsakalinge api ete astu maharshayah
maharshi ikarant pullinga shabda
ikarant pullinga shabdah like girihi giri girayah
bahuvachana
maharshi maharshayah So this will be Ete Maharshayah. So there are three Etes. Dvivachana Strilinga, Dvivachana Napumsakalinga, Bahuvachana Pullinga. Ete Maharshayah. Suktayah, same Rupam. अयः
इकारान्त
सो दिस् इस् इकारान्त स्त्रीलिङ्गशब्द सूक्तिः इस् अ स्त्रीलिङ्गशब्द एताः सूक्तयः अक्षीणि सो दिस् इस् दि आपोजिट् वारिणि बट् इट् इस् अक्षीणि
एतानि
एतानि अक्षीणि अस्तु उचितानि रूपाणि सूचयन्तु सेम् थिङ्ग् ओके अत्र तरुः तरू तर वः खलु गुरुवत् गुरुः गुरू गुरवः सो अत्र गुरुः
सः
शुद्धम् आप्शन्
या महोदय वाट्
There is an ashuddham option here which was not there in the previous one.
Astu. Atra api. Shatru. Shatruhu, shatru, shatravaha.
Ukaran pulling, guruvat bhavati.
Guruvat. Ukaranta pulling. Tau. Tau.
Shatru.
Tau, shatru. Astu. Sadhavaha.
साधु उकारान्त पुल्लिङ्ग
बहुवचनं ते सः तौ ते तरुः तरू तरवः शत्रुः शत्रू शत्रवः साधुः साधू साधवः इन् जनरल् इट् इस् पुल्लिङ्ग साधु For Strilinga, I think they say Sadhvi.
Okay.
Okay, we can check. Whenever there is a Sandeha, I would like to check. Okay, ek animation. Andhra Bharati, there is one nice thing. Andhra Bharati. They may give it here, I'm not sure, we'll see. See, for Strilinga, it's a V, Sadhvi. So for Pullinga, Napumsakalinga, they may say Sadhu. Sadhvi is also the Pullinga. This is a nice thing called Andhra Bharati.
May you please send it in WhatsApp?
Sure. Sure, I'll do that. At the end of the class, I'll do that.
Dhanyavad.
Dhanyavad, Bhagini. So, Atra, Chanchuhu, Pullingam va Strilingam. This is the most difficult. Pullingam va Strilingam va. स्त्रीलिङ्ग चञ्चु 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 इत्युक्ते बीक् चञ्चु स्त्रीलिङ्गपदम्
सो धेनुवत् भवति
धेनुवत् धेनुवत् तत्र चञ्चु अस्ति चेत् एकवचनं सो अत्र साव किं सा चञ्चुः धेनु चञ्चुः चञ्चू चञ्चवः समानरूपं शत्रुः शत्रू शत्रवः चञ्चुः चञ्चू चञ्चवः सो अत्र धेनु द्विवचनं सो अत्र ते भवति धेनु पुल्लिङ्ग बहुवचनं स्त्रीलिङ्ग द्विवचनं धेनु अस्तु धेनु धेनवः इदानीं वधू अस्ति वधु अशुद्धं परन्तु वधु अत्र विसर्गः भवति वधूः सो अतः अशुद्धम् अत्र पश्यामः अस्ति वा स्लैड् मध्ये अस्ति परन्तु वाट् इफ् ऐ मेड् अ मिस्टेक् इन् द स्लैड् ओके स्लैड् मध्ये अस्ति परन्तु अत्र विसर्गः नास्ति कुत्र पश्यामः स्लैड् मध्ये अस्ति ऐ होप् ऐ डिन्ट् मेक् अ मिस्टेक् वधूः
भगिनी गीतासूक्तानि कोष्टकम् अस्ति खलु तत्र वधूः
वधूः एव वधूः एव वधूः एव सो अत्र वधू इति अशुद्धम् अस्तु वध्वः शुद्धं वा अशुद्धं वा वधूः वध्वौ वध्वः
ताः वध्वः
वध्वः सो ताः कुत्र अस्ति अत्र ताः वध्वः वधवः न भवति
अशुद्धं तत्र
अशुद्धम् अशुद्धं किमर्थम् इत्युक्ते अत्र ह्रस्व इकार अस्ति चेत् अवः भवति धेनवः मतयः हरयः गुरवः भवति परन्तु दीर्घ अस्ति चेत् अ न भवति मध्ये गौर्यः वध्वः ओके दीर्घ अस्ति दीर्घई दीर्घ उ अस्ति चेत् वध्वः गौर्यः नद्यः इति भवति परन्तु ह्रस्वम् अस्ति चेत् अयः अवः इति भवति सो धेनुः धेनु धेनवः सम्यक् धेन्वः अशुद्धम् धेनवः ताः धेनवः अवगच्छन्ति वा सर्वे
आं भगिनि
अस्तु सम्यक् अस्तु मधु कीदृशपदं मधु उकारान्त नपुंसकलिङ्गपदं सो अतः तत् भवति तत् मधु अस्तु वस्तुः परन्तु अत्र विसर्गः न भवति अशुद्धम् अशुद्धम् अतः वस्तु सम्यक् तत् वस्तु तत् वस्तु मधु इव तत् मधु तत् वस्तु वस्तूनि
तानि
वस्तूनि वस्तूनि दीर्घमस्ति चेत् वस्तूनि अशुद्धम् वस्तु भवति वा अशुद्धम् अशुद्धम् वस्तु वस्तूनि वस्तूनि वस्तु वस्तूनि वस्तूनि एवं भवति मधु मधुनि मधूनि वस्तु वस्तूनि वस्तूनि अत्र वस्तु अपि अशुद्धं वस्तवः अपि अशुद्धम् अशुद्धम् एतादृशरूपाणि न भवन्ति नपुंसकलिङ्गे विसर्गः न भवति वस्तूनि न भवति वस्तू न भवति वस्तवः न भवति एतानि रूपाणि पुल्लिङ्गे स्त्रीलिङ्गे भवति शत्रुः शत्रू शत्रवः साधवः एवं भवति अस्तु अग्रे अहं मातृ माता एव शुद्धं मातृ इति मूलरूपं परन्तु माता पितृ पिता दातृ दाता अशुद्धम् आवां स्वसारौ
शुद्धं
शुद्धं श्वसृ स्वसा श्वसारौ स्वसृ इति मूलरूपं स्वसा स्वसारौ स्वसारः माता अत्र मातरौ स्वसा स्वसारौ भवति किमर्थं न जानामि परन्तु तथा एव भवति माता मातरौ मातरः स्वसा स्वसारौ स्वसारः एवं भवति स्वसारौ शुद्धं शुद्धं स्वसरौ अशुद्धं माता मातरौ शुद्धं स्वसरौ अशुद्धं ओके स्वसारौ शुद्धं मातरौ शुद्धं शुद्धं पितारौ
अशुद्धं
अशुद्धं मातरौ पितरौ एवं शुद्धं पितारौ अशुद्धं वयं दातारः
शुद्धं
शुद्धं सो इफ द वर्ड कम्स् फ्रम् ए क्रियापदं देन् इट् बिकम्स् आ लैक् दट् दा दातु दातारः दिस् इस् एन् एक्सेप्शन् स्वसा स्वसृ इट्स् एन् एक्सेप्शन् दातारः शुद्धं वक्तरः वयं वक्तरः वक्तारः एव शुद्धं सो दिस् इस् अशुद्धं वयम् अभिनेतृः
अभिनेतारः
नेतारः अभिनेतारः लैक् नेतृ नेतृत्वम् इट् कम्स् फ्रम् अ क्रियापदं सो नेतारः एव शुद्धं नेतृ नेतृः इति द्वितीयाविभक्तिरूपम् द्वितीयाविभक्ति बहुवचनरूपं नेत् अत्र नास्ति परन्तु नेतृः इति द्वितीयाविभक्तिरूपं सो अतः अशुद्धं वयं भ्रातरः
शुद्धं भगिनि
पितरः मातरः पिता पितरौ पितरः माता मातरौ मातरः भ्राता भ्रातरौ भ्रातरः भ्रातारः
अशुद्धम्
अशुद्धं भ्रातरः शुद्धं भ्रातारः अशुद्धम् अस्तु अभवत् सो इन् प्रथमाविभक्ति इस् मेन्लि द रूपाणि एव सो वि गो फार् षष्टिविभक्ति समयः अस्ति वा अस्ति अस्तु श्रोतृ उचितषष्टिविभक्तिरूपाणि चिन्वन्तु अत्र अपि श्रोतृ
श्रोता
श्रोतारौ
सम्यक् मिडल् वन्
श्रोतस्य न भवति सो इट्स् अ ऋकारान्तपदं मातृः ऐ मीन् मातृ इव मातृ पितृ समानरूपं भवति एकनिमेषम् अस्तु सो अत्र मातुः मात्रोः मातॄणां पितुः पित्रोः पितॄणां समानरूपमेव भवति स्वसा अपि एवमेव स्वसुः स्वस्रोः स्वसॄणाम् एवं भवति
मिडल् वन्
श्रोतृः श्रोत्रोः श्रोतॄणां पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्ग समानरूपं सो अत्र भेदः न भवति इदानीम् अतिथि
अतिथेः अतिथ्योः अतिथीनाम्
अतिथि इति पुल्लिङ्ग इकारान्तपुल्लिङ्गपदम् इकारान्तपुल्लिङ्गपदम् एवं भवति हरेः हर्योः हरीणां स्त्रीलिङ्गे अपि समानं परन्तु एकवचने विकल्पः भवति मत्याः इति बुद्ध्याः रमायाः याः इति तस्य लक्षणं स्त्रीलिङ्गपदस्य इकारान्तस्त्रीलिङ्गपदस्य लक्षणमस्ति याः उकारान्तपदं वाह याः इव वाह उकारान्तपदम् अस्ति चेत् वाह सो अत्र अतिथेः अतिथ्योः अतिथीनाम् अतिथ्याः न भवति किमर्थम् इत्युक्ते पुल्लिङ्गपदं स्त्रीलिङ्ग अस्ति चेत् भवति पुल्लिङ्ग न भवति सो अत्र स्त्रीलिङ्ग अतिथि अस्ति चेत् अपि अतिथि एव सा मम अतिथिः अत्र पश्यामः विकल्पः अस्ति वा इति स्त्रीलिङ्गविकल्पः अस्ति वा अतिथि spelled it wrong maybe अतिथि एकः एव अस्ति पुल्लिङ्गे अतिथिः अतिथा अपि अस्ति इण्ट्रेस्टिङ्ग् अतिथिः अपि अस्ति अतिथा वा न जान ऐ नेवर् हर्ड् दिस् अतिथा
सो वाट् इस् एम् एफ् एन्
मास्कुलिन् फेमिनिन् न्यूट्रल्
आल्सो फेमिनिन् अस्ति वा
अत्र इण्डिकेशन् अस्ति अतिथा इति ऐ डिड् नाट् नो दट् अत्र केवलं पुल्लिङ्गे एव अस्ति सो दिस् इस् अ मोर् रेकग्नैस्ड् वन् अतिथि अतिथिः पुल्लिङ्गे एव परन्तु अत्र अतिथा अपि अस्ति पुल्लिङ्गे अतिथिः एव अतिथिः संसाधिनी मध्ये अपि द्रष्टुं शक्नुमः वयम् इट्स् ओके ऐल् अतिथा इति नास्ति इति अहं चिन्तयामि परन्तु पश्यामः अत्र ओ अतिथि न अतिथा नास्ति अतिथा नास्ति अतिथि अस्ति परन्तु अतिथि स्त्रीलिङ्गम् इति पश्यामः चेत् न भवति पुल्लिङ्गे एव अस्ति अतिथिः पुल्लिङ्गे एव अस्ति अस्तु सो अत्र अतिथेः अतिथ्योः अतिथीनाम् इति अस्ति अग्रे भवत् शिक्षिका स्त्रीलिङ्ग भवत्याः भवत्योः भवतीनाम् अत्र सम्यक् अस्ति शिक्षिका शिक्षिकायाः शिक्षिकयोः शिक्षिका न शुद्धं वा अशुद्धं वा बहूनां
शुद्धमस्ति
बहूनां दीर्घं शुद्धं बहूनाम् अशुद्धं बाहूनां सम्यक् सारि बाहूनां शुद्धं बाहु अशुद्धं सो अत्र किम् अस्ति इत्युक्ते ह्रस्व अस्ति चेत् अपि दीर्घमेव गुरु अस्ति चेत् अपि गुरूणां सर्वत्र दीर्घत्वं भवति सर्वोः किं भगिनि
our answers that we answered on the Google sheet I can how do we retrieve it is it erased
you should save it Bhagini otherwise you cannot retrieve it
how do you save it
once you get the answer you click save
on the copy paste or on the
no page? No like for example like right here right I do the right click.
Oh, I see.
And then I can do save as.
Okay.
Or I can do print. And then I say save as a PDF. So all my answers will be saved as a PDF.
I didn't know that. Okay. Because I was trying to retrieve it now and I couldn't find it.
Yeah, it's not possible. Once it's gone, it's gone. Astu. So atra tarvoho.
Shuddham.
शुद्धं सो तरुवोः इति अस्ति चेत् मूलरूपं किं तरोः तरुवोः तरूणा बै जस्ट् तरुवोः वि केनाट् टेल् पुल्लिङ्गं वा स्त्रीलिङ्गं वा धेनोः धेन्वोः धेनूना बट् वि नो तरु इस् अ पुल्लिङ्गपदं तरुः तरुवोः तरवोः अशुद्धम् तरोः
शुद्धम् एकवचनं
तरोः तरुवोः तरूणाम् इति वि तरोः तरुवोः तरूणाम् ऊका उकारान्तपदं पुल्लिङ्गं वा स्त्रीलिङ्गं वा समानरूपं भवति परन्तु एकवचने पुल्लिङ्ग अस्ति चेत् किम् स्त्रीलिङ्ग अस्ति चेत् किं भवति वाह भवति यथा गौरी अथवा मथि अस्ति चेत् याः अस्ति खलु अत्र वाह भवति सर्वाः इति भवति अस्तु उचितं विकल्पं चिनोतु सो अत्र सुरभि उषा भगिनी मां सूचितवती सुरभि इति पुल्लिङ्गे अपि अस्ति अपि च नपुंसकलिङ्गे अपि अस्ति सो ऐ मोडिफैड् द क्वश्चन् सुरभि इति अस्ति चेत् ऐ मेण्ट् पर्फ्यूम् सुरभि गोल्ड् अपि सुरभि अत्र फ्रेग्रेन्स् इति वदामः चेत् अपि पुल्लिङ्गे अपि अस्ति बट् ऐ मेण्ट् नपुंसकलिङ्ग ओके सो अत्र नपुंसकलिङ्ग अस्ति चेत् सुरभिनः नपुंसकलिङ्गे नकारः आगच्छति नकारः वारिणः वारिणोः वारीणां सो अत्र अन्य सर्वत्र तथा न भवति पुल्लिङ्गे स्त्रीलिङ्गे समानरूपं भवति नपुंसकलिङ्गे भिन्नरूपं सुरभिनः इति परन्तु पुल्लिङ्गे अस्ति चेत् अत्र पुल्लिङ्गे अपि भवति सो अतः सुरभेः अपि सम्यक् एव सुरभिनः बट् ऐ मेण्ट् सुरभिनः सुरभेः सुरभयोः सुरभीना.
What would be the pratipadikam?
Surabhi. Surabhi.
Lingam and the strilingam?
Same. Surabhi. But here, I put...
You gave the correct strilinga rupam. So it could have, that could also be selected, right?
Yeah. But I put surabhayoho. Right? Mm-hmm. Surabhi. But here it is surabhyoho eva. Surabhayoho na bhavati. Okay, only for akaranta padam. Ramayoho. Anya sarvatra a madhye na agachati. Haryoho. Matyoho. Gurvoho. Okay. So,
Bhagini, the third one is wrong anyway, right?
Anyway.
Oh, okay.
Third one is wrong anyway. Second one is, first one is also wrong. Even if it is, say, okay, it is a strilinga padam. Surabhayoho is wrong. Surabhyoho means it will be, we can say, okay, strilinga. Surabhyoho antra asti chet, okay, pullinga. But it is not. Surabhinaha. Agree. Shvashrau. Shvashru. So, atra shvashru. Iti padam. Ukara anta padam. Shvashru. Shvashruhu iti asti kalu. Shvashruhu va shvashru va. So, I think it is shvashruhu, like vaduhu. Pashyamaha. No, it's not. I didn't type properly, I think. Shvashruhu. Samyata.
Shvashruhu, Bhagini.
Shvashruhu.
Yeah.
Trilingapada. Shvashruhu. Shvashruhu. There is a visarga there. Okay. Shvashruhu, there is a visarga. Like vaduhu. Then it becomes vadvaha, vadvohu, vadunam. Shvashruvaha, shvashruvohu, shvashrunam. Vaha. Shvashruvaha, shvashruvohu, shvashrunam. This is the rupa. Yana bhavati, because it is a ukaranta padam. Shvashrauna bhavati. Because this is a saptami vibhakti eva bhavati, but it is not saptami vibhakti.
Yeah, bahuvachanam is wrong.
Pullinga, yeah. So this looks like a pullinga saptami, but this is a strilinga. So this is the correct form. Shvashvaha. Ikaranta asti chet, okay. Yaha. Like nadi, nadyaha, nadyoho, nadina, but it's all mixed up. So this is not correct either. Okay, now, Eshaha. Etasya. Uchitam rupani yojayatu. So which is the correct form? Etat.
Etasya.
Etasya. Okay, they both same.
Yeah.
Eshaha api etasya, etat api etasya. Esha.
Etasyah.
Etasyah. Etayoho api bhavati. Etesham api bhavati. Hello? Because esha ete etayoho. Etat ete etani tatra api etayoho. एते
इतेषाम्
एतेषाम् एतौ
द्विवचनम् अण्ड् बहुवचनम्
द्विवचनम् फार् स्त्रीलिङ्ग अण्ड् नपुंसकलिङ्ग अण्ड् बहुवचनम् फार् पुल्लिङ्ग एतौ
एतयोः
एतयोः ओन्लि वन् एतयोः एतानि
एतेषाम्
एतेषाम् एतेषां पुल्लिङ्ग नपुंसकलिङ्ग समानरूपम् एताः एतासाम् एवम् एवं भवति अस्तु शुद्धं वा अशुद्धं वा ओके सो द ऐ मीन् इफ् यु वाण्ट् टु स्टाप् द क्लास् वि केन् स्टाप् वि केन् कण्टिन्यू द नेक्स्ट् टैम् Yeah, let's do next time, okay? Because this is a special day, so we can go and celebrate, okay?
Asta. Dhanyavada, Bhagini.
Dhanyavada.
Dhanyavada.
Namaskar.
Dhanyavada, Bhagini. Dhanyavada.
Dhanyavada, Bhagini. Dhanyavada. Dhanyavada, Bhagini. Dhanyavada.